सर्वेभ्यो नमः, स्वागतं। वयं प्रार्थनां वदामः। चित्रा भगिनी,
ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनी। अद्य वयं पुनः कथां पठामः। नीना भगिनी, भवती वदति वा? भवती पठति वा?
Sorry, I couldn't get off mute. Okay, just read it because we already did this, right?
वयं पुनः
मूर्खम् उद्दिश्य उपदेशः।
अत्र मूर्खम् इति का विभक्तिः?
द्वितीया भक्ति, चतुर्थी
न, अत्र विभक्तिः नास्ति।
अव्ययम् उपदेशः प्रथमा विभक्ति,
अकारान्तपुल्लिङ्गं विभक्तिरूपाणि वदति वा?
प्रथमा किं हियमि?
Can you see all the vibhakti forms?
No. For upadeshaha?
Yeah.
Okay. Upadeshaha, upadeshau, upadeshaha, upadesham, upadesham, upadesh, gosh.
Upadeshau.
Upadeshau, upadeshan. उपदेशाभ्याम् उपदेशात् उपदेशाभ्याम् उपदेशेभ्यः उपदेशस्य उपदेशस्य उपदेशयोः उपदेशयोः उपदेश उपदेशभिः
उपदेशानाम्
उपदेशानां देन् उपदेशे उपदेशो उपदेशयोः उपदेशेषु उपदेश उपदेशौ उपदेशाः।
समीचीनम्। अस्तु, इदानीं भवती एव पठतु प्रथमवाक्यम्।
कश्चन पर्वतः आसीत्, तत्र
अत्र क्रियापदं किम्?
आसीत्।
कः कालः?
भूतकालः।
समीचीनम्. अत्र कर्तृपदं किं?
पार्वतः.
समीचीनम्. अस्तु, इदानीं नागेन्द्रमहोदय, भवान् पर्वतः इति पदस्य सर्वाणि रूपाणि.
पर्वतः, पर्वतौ, पर्वताः, पर्वतं, पर्वतौ, पर्वतान्, पर्वतेन, पर्वताभ्यां, पर्वतैः, पर्वताय, पर्वताभ्यां, पर्वतेभ्यः, पर्वतात्, पर्वताभ्यां, पर्वतेभ्यः, पर्वतस्य, पर्वतयोः, पर्वतानां, पर्वते, पर्वतयोः, पर्वतेषु. देन् पर्वतः, पर्वत, पर्वतौ, पर्वताः.
समीचीनम्. नीना भगिनी, भवती इदानीं द्वितीयं वाक्यं पठतु.
तत्र बहवः वानराः वसन्ति स्म.
अत्र क्रियापदं किं?
वसन्ति स्म.
न, अत्र वसन्ति इति एव क्रियापदम्. अत्र स्म इति अव्ययं योजयामः. अस्तु, कर्तृपदं किं?
वानराः.
वचनं किं?
बहुवचनम्.
समीचीनम्. कुत्र वानराः वसन्ति?
तत्र पर्वतः.
पर्वते.
पर्वते.
समीचीनम्. अस्तु, भवती एव पठतु.
कदाचित् हेमन्तसमयः सम्प्राप्तः.
अत्र क्रियापदं किं?
सम्प्राप्तः.
समीचीनम्. कर्तृपदं?
हेमन्तसमयः.
आम्, समीचीनम्. अस्तु, अनन्तरं शीला भगिनी, भवती पठतु.
कदाचित् हेमन्तसमयः सम्प्राप्तः.
एतत् समाप्तम्.
सर्वत्र वातावरणे अत्यन्तं शैत्यम् आसीत्. हिमपातः अपि भवति स्म.
एकनिमिषः भगिनी. सर्वत्र वातावरणे अत्यन्तं शैत्यम् आसीत्. अत्र क्रियापदं किम्?
वातावरणे. ओ, आसीत् इस् अ क्रियापदम्.
आम्. अस्तु, अत्र कर्तृपदं किं?
वातावरणे.
वातावरणे आसीत् इति न वदामः किल? वातावरणे इति सप्तमी भवति. किम् आसीत्?
सत्यम् आसीत्.
आम्, तदेव कर्तृपदम्. अस्तु, वातावरणे का विभक्तिः?
वातावरणे सप्तमी विभक्ति.
प्रथमा एकवचनं किं?
वातावरण, वर्णः.
वातावरणं वा वातावरणः वा?
वातावरणं, वातावरणः. रामः.
नीना भगिनी, भवती वदति वा?
अहं नपुंसकलिङ्गम् इति
वातावरणं वातावरणमेव.
How do we distinguish, Bhagini?
I mean, you just have to know the word, that's it.
Okay.
Astu, tasya sarvani vipakti rupani vadatu.
Vatavaranam. Vatavaranam, vatavarane, vatavaranani. Vatavaram, vatavaranam, vatavarane, vatavaranani. वातावरणेन वातावरणाभ्यां वातावरणैः वातावरणाय वातावरणाभ्यां वातावरणेभ्यः वातावरणात् वातावरणाभ्यां वातावरणेभ्यः वातावरणस्य वातावरणयोः वातावरणानां वातावरणे वातावरणयोः वातावरणेषु
सम्बोधनं
वातावरण वातावरणै वातावरणानि
वातावरणौ
वातावरणौ
वातावरणे
वदतु भगिनि.
फिनिश् भगिनि. वातावरणं वातावरणे वातावरणानि.
हा अस्तु अस्तु इदानीम् अनन्तरं पठतु. हिमपातः अपि
हिमपातः अपि भवति स्म.
अत्र क्रियापदं किं
भवति?
भवति कर्तृपदं
हिमपातः.
आं समीचीनम्. अपि इति
अपि इति अव्यय भगिनि. अपि इति आल्सो आल्सो
स्म इति
यूस् टु लैक् ऐ यूस् टु डु दिस् स्म.
अव्ययं भवति
अव्यय
अव्ययम् अस्तु समीचीनम्. अस्तु इदानीं राधा भगिनी भवती हिमपाताः इति पदस्य सर्वाणि विभक्तिरूपाणि.
हिमपाताः हिमपाताः हिमपातौ हिमपाताः हिमपातं हिमपातौ हिमपातान् हिमपातेन हिमपाताभ्यां हिमपातैः हिमपातैः पातैः हिमपातैः हिमपाताय हिमपाताभ्यां हिमपातेभ्यः हिमपातात् हिमपाताभ्यां हिमपातेभ्यः हिमपातस्य हिमपातयोः हिमपातानां हिमपाते हिमपातयोः हिमपातेषु हिमपात हिमपातौ हिमपाताः.
समीचीनं भगिनि. अस्तु शिला भगिनी भवती एव वदतु अनन्तरम् एतादृशम्
एतादृशं दुस्साहसं शैत्यं दुस्सहं शैत्यं सोढुम् आसक्ताः वानराः कम्पते स्म
कम्पन्ते स्म
कम्पन्ते स्म.
सोढुं
intolerable, right?
Intolerable. अत्र सोडुम् इति कः प्रत्ययः योजितमस्ति
सोडुम् व्हाट डिड यू से इट
टु टॉलरेट अथवा टु बेर
एंड दुसाम
For me, that was unbearable, but anyway, it's the same meaning, I guess.
Yeah. Sodam ashakta. Atra, sodam iti kaha pratyayah yojitam asti.
Tuman?
Tuman. Pratyayah, samichinu. Eta drisham. इति किं भवति
शीला
भगिनि
ऐ डोण्ट् नो भगिनि
किं भगिनि
ऐ डोण्ट् नो वट् डिड् यु आस्क् एतादृशं
What is etadrisham?
Etadrisham, like this, likewise.
Not the meaning, Bhagini, we say like avyayam or what to say, avyayam.
I don't know, Bhagini, maybe it's abhyayam.
Visheshanam.
Yeah, I don't know.
It's a visheshanam, Bhagini.
Okay.
अस्तु
भगिनि सो दुस्सहम् आल्सो विल् बी अ विशेषणं राइट
आं भगिनि अपि भवति अस्तु अशक्ताः इति
विशेषणमपि
आम् किन्तु कः प्रत्ययः अत्र वयं न पठितं क्ता प्रत्ययः
न भगिनि अत्यक्ताः इस् आल्सो विशेषणम्
यस् भगिनि तत्र अशक्तः इति अशक्तः अशक्ता अशक्तमिति भवति अस्तु अस्तु अतः क्रियापदं किं किल भगिनि किं भवति कम्पन्ते अस्तु कर्तृपदं
वानरः
वानराः
वानराः
वानराः अत्र एतादृशमिति विशेषणं हमिति विशेषणं दैत्यमिति
एतादृशं दृश्यं
नामपदं नपुंसकलिङ्गं
विशेषं भवति
ओ विशेषं
विशेषणं न विशेषं
विशेष इत्युक्ते व्हाट डू यू से इन आङ्गलं
नामपदं
भगिनि विशेषणम् इस् लैक् एड्जेक्टिव्
रैट्
सो विशेषम् इस् द नौन् दट् द एड्जेक्टिव् इस् डिस्क्रैबिङ्ग् अस्तु
विशेषं भगिनि विच् वन् इस् द विशेषं
शैत्यं
शैत्यं ओ ओ शैत्यं ओके
शैत्यम् इति विशेष्यं दुस्सहम् एतादृशं तस्य
अशक्ताः अपि
न अत्र दुस्सहम् अपि एतादृशं विशेषणं भवति अशक्ताः अत्रापि एतत् भवति किन्तु वानराः इति पदस्य कम्पन्ते इत्युक्ते
क्रियापदम्
अनन्तरं स्म इति
भगिनि अव्ययं वाट् इस् इङ्ग्लिश् इक्विवलेण्ट्
There is no English equivalent to it.
But this sma is like ongoing?
Not ongoing, it was ongoing.
It was ongoing, past continuous then. Mm-hmm.
Yeah, it is like that.
Okay.
Bhagini, what is visheshyam you were trying to explain?
It's the noun that the adjective describes.
Oh, here the visheshyam is vanara.
Visheshyam
is
vanara. Vanara has shaitya. Vanara has shaitya. Both. Okay. So shaityam is now is napumsa link?
Mohadiya.
And what is the meaning of Shaitan Dhamma? I was out for some time.
Cold.
Anantaram Bhavaneva Patratam Nagami.
Ekada Kaschit Vanaraha Kutaschit Kanichit Gunjapalani Anitvan.
अत्र क्रियापदं किम्
आनीतवान् भूतकालं
वाट् इस् गुञ्जाफलं
तत् फलम् अस्ति किल
बेरी बेरी विच् रेड् इन् कलर्
ब्लाक् बाटम्
जानाति वा भगिनि भगिनी भवती जानाति वा
नो ऐ हेव् नाट् हर्ड् आफ़् इट् बिफोर्
ट्रेडिशनल् इण्डियन् गेम् यु नो दोस् वुडन् बोट्स् वित् होल्स् इन् इट्
ओ ओके ओके दिस् वन् ओके गुण्डुमणि तमिळ् इस् काल्ड् गुण्डुमणि
इस् इट् द रेगि फल इन्
नो 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 नो
इट्स्
नाट् नो दिस् इस् गुरुविन्द गिञ्जा
ओ गुरुविन्द गिञ्जा ओके
In Telugu, that is.
In yeah. Tamil, it's called Gundamani.
We also have a practice in the Guruvayur temple in Kerala where the little children are asked to play with this so that they can become proficient in speaking and...
Oh, okay.
In Telugu, there is a saying, a very, you know, by a very, very ascetic, popular kind of a person, that says that this bead or seed doesn't know that there is black on its back. So it basically says that people who don't know their own mistakes, they compare it to this seed.
Oh, wow. Okay, Bhajani, do you know Telugu?
Yeah.
Okay.
Okay.
Asta. अत्र एकदा इति किं भवति नागेन्द्रमहोदय किन्तु विशेषणं वा विशेष्यं वा अव्ययं वा
एकदा नथिङ्ग् just a word.
No, avyayam bhavati mahodaya.
What is the English equivalent of avyayam, Bhagini?
There is no English equivalent, mahodaya.
So whenever I don't know what I should say, avyayam.
Not all Sanskrit words need to have an English equivalent, mahodaya.
So when do you say a word as avyayam?
When it doesn't change. When vibhakti doesn't apply to it. Yeah.
Yada vibhakti hi nasti, lingaha api nasti.
Lingaha api nasti. And I was going to say, I just heard it from somebody else, that there are just a finite list of avyayams in Sanskritam. So you just
finite.
Need to, like,
over a period. I don't think there's finite. I think there's infinite.
So, I mean, this is a, okay, but this is a source I'll believe. They say it's not that infinite. You will be able to sort of just know that all of these are avyayams. You'll be able to sort of just know if you read them, is what I was told.
Oh, okay. Astu. Atra kriya padam kim mahodaya?
Kriya is anitivam.
Kartrupadam?
Vanarha.
अत्र आनीतवान् इति कः प्रत्ययः योजितमस्ति
भूतकालम्
किन्तु कः प्रत्ययः प्रत्ययान् वयं पठितवान् अभ्यासपुस्तके
Because you said the word kaha, I can say vanaraha.
Na kaha pratyayaha yojitamasti. Anitavaniti.
Anitivan. Anitavataha.
Na. Vayam abhyasa pustake vayam patitavantaha.
I don't know if we learned this as pratyaya. It was more like not rut.
Kintu vayam tasya pratyaya api vayam patitavantaha.
I don't remember.
We forgot, Bhagini.
Neeta.
Krit pratyaya, Bhagini.
Tavatu.
What is it again?
Tavatu.
Okay, I don't remember reading that.
What is the word for pratyayam? What is the English? What are we trying to ask pratyayam means?
Like, what pratyaha have we added here?
No, I think Mahatma is asking what is pratyaya.
Pratyaya is prefix, right?
Yeah. No.
If you look at our verb sheet, right, the verb sheet that we got, that Kriyapadam handout, you have the tumun, gatva. So it's like, you know, patitva, having read, patitum, to read. So it's like that.
Yeah.
It's suffix. It's suffix, not prefix. Okay.
Anyway.
Bhagini, does this Anitavan is similar to Pashyan in that sense? I mean, similar to Pashyan that comes ahead in the passage that when we were doing it last time?
Na Bhagini, tatra Pashyan iti Shatra Pratyaha Bhavati.
Shantantram, yeah, okay.
Second page. That is Shatra. Bhagini, I know the endings look similar for like Anitavan. Nakaram is there, but they're not the same pratyaya.
Bhagini, how many pratyaya are we have to keep thinking about?
As we go on, how many ever we learn, we have to know.
And we have learned about 4 till now?
Wait, 1 minute.
Yes,
I think we learned more than four. More than four. I think five or six or something. 1 minute.
I mean, if the Swantam, then Tumunantam. And Tumun is the same as Twa, right? I mean, they're sort of like, which is always, and then there is the, I'm sorry, not Tumun, Lyap and Twa are sort of the same.
Sastranta also will be.
Oh, and then we'll learn one new one when we do the, Kata one. We finish it.
I think five, actually.
Twa, Tam.
Sastranta, Bhagini.
Yeah.
These are all the suffixes.
I don't know if you can call them a suffix, honestly. I mean, it's like past participle, you know, those kind of verbs in English. Having read, she did something. I don't know the English
equivalent,
but the ending word changing will change the implication of it, correct?
So that's why it's
see, suffix is when you add something, right? Suffix is when you add something to the ending.
That's why it's called suffix.
Is the word if you add in the beginning, Bhagini?
Prefix.
In Sanskrit.
Upasargaha.
Upasargaha and Pratyaya.
But they're different.
They're different, yeah.
Just, because Pratyaya, you're adding, it's like a formula you're adding to the dhatu.
Yeah.
It's not like, yeah.
So the question you had asked, kaha kaha Pratyaya, so our answer will be Twan Pratyaya.
Atra kaha pratyayaha yojitam asti.
So answer to that question is what is the answer to that question?
Patu in your case.
Tavatu.
Tavatu.
So the ka is silent, is it?
No, you're saying it but very slightly. You're not saying ikhtavatu.
Tavatu. Adha, like half a ka.
But how will I know that Anitvan is Tvatu?
As you learn, we have to memorize which pratyaha for which padam, which pratyaha you use. Because this is one of the simple kriyapadams you use in Bhagini,
I mean, may I suggest this one particularly is easy, right? Because it's actually anything in past tense.
Yeah, but careful, but asan isn't ktavatu.
Oh, yeah, okay. No, so can we say that if some word is in ktavatu, then it's definitely in past tense, but not all past tense words are ktavatu.
Yeah, yes. You can say that.
Bhagini, would this word have changed if it was aham or vayam?
Yeah. I think so.
Yeah, because vanaraha anitavan. If there was bhavati, then
anitavati.
Aham anitavati or anitavan. Vayam anitavantaha. Or
anitavatyaha.
All of them are kvata.
Ktavatu. We did that in Prasi Pustakam.
Okay.
So you should know.
Okay, bye.
अस्तु नेक्स्ट सेंटेंस महोदय
तानि गुंजाफलानि अग्निकण सदृशानि आसन
क्रियापदं किम्
आसन
समीचीनं भूतकालः किल
भूतकालः करेक्ट भूतकालः यस्
कर्तृपदं किम्
कर्तृपदं तानि गुजपालनि अग्रिमम् Gunjafalani.
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 Gunjafalani iti visheshanam va, visheshyam va, avyayam va, athava ekam padam va.
Gunjafalani bahuvachanam padam. Agni kana sadrashani.
Na aham gunjafalani aham visheshanam va, visheshyam va, avyayam va, athava
namapadam
eva va.
Gunjafalani napumsakling bahuvachanam.
No mahodaya, I am asking if it's a visheshanam, visheshyam or avyayam.
Visheshanam.
What about gunjafalani?
It's a visheshanam.
No, it's not.
Visheshyam.
It's just a noun.
No, visheshyam. Namapadam.
Because tani is visheshanam.
Visheshanam.
What?
So gunjafalani visheshyam.
No, wait a second. Why would this be visheshyam? Tani is not describing gunjafalani in any manner. It's only saying that those fruits.
But which fruit?
Tani is those.
Those
fruits.
But fruit is those. A noun. Why would it become a visheshyam? Gunjafalani is a noun, right? It, that is not describing anything. It's just on its own a noun.
That those them are not adjectives.
Maybe tani is a vishesham.
So, but how can tani be? It's like those. So why should it be visheshanam?
Yeah, I mean, yeah.
Tani is those gunjafala, those fruits look like fire to them. So those is not a thing. No?
Ashta.
Okay.
Bhagini, what is the root word for gunjafalani? Would be gunjafalam.
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 Root word would be gunjafalam.
Palam. Let's say palam is napunsak, no?
Sati palam, you asked. So then you can't say gunjafalam, right?
Hmm. Gunjafalam.
Yeah. For pratipadika. Ashta. भवानेव पठतु.
अतः वानराः चिन्तितवन्तः.
अत्र क्रियापदं किम्?
चिन्तितवन्तः. बहुवचनम्?
आम्. कः प्रत्ययः?
कः प्रत्ययः? I am not so strong in the pratyaya, Bhagini.
We just discussed it.
I know, but I don't know which one is chintavantah.
It will be kvanta.
Tvatu.
No, kvanta. Kvanta.
Yeah, I'll give example for each one.
I think this we should revisit again. I don't remember doing that.
Yeah,
much
I struggle with this all the time.
Bhagini, you can send us a list to, with examples, Bhagini, so that we can go through those and become more familiar.
Ekam shalikami.
तदपि
पठितवन्तः किल भगिनि?
विभक्ति वल्लरी पुस्तके अहं न दृश्यते.
We didn't do it like as a topic that was in the book, but we just meant it.
Okay.
I think when we did a kata, we learned it.
Okay. You have very high hopes on us, Bhagini.
We seem to just keep forgetting when we move to the next level.
I'm going to blame it to age, on age.
I want to believe that we are, you know, quite preoccupied with others, other works and us. So mind is already crammed with a lot of other things.
Yeah.
Ashtu?
Bhagini, we need sentences, Bhagini. So,
Tumun and Kvanta.
Yeah, I think we know those. Tumun and Kva.
Kvanta, yeah.
Yep. Ktwa. Oh, I forgot one more. Shatr Pratyah.
Oh.
Shatr.
I mean, I feel like I feel we should take this as homework, you know, and yes. we do the sentences on our own rather than Bhagni sending, and then we can just go to Vibhakti Vallari and revisit that chapter once and then sort of do the sentences. At least that's my 2 cents.
Yes, Shatra Pratyaya, I don't remember.
Vibhakti Vallari, second page.
Okay.
You're right, second page.
Okay. Pathi. Twa. Pathan, pathan.
Okay. Ashtu? I think this one is the only one that looks new because we did it in the Katha.
We formally did it.
Vachana Paripalakaha Ramaha, in that, I think.
Oh, okay.
That's where that came from. Okay?
So, Bhagini, this Pashyan falls in the Shatrupatraya Pratyaya?
Yes, yes, Bhagini. Pashyan.
Pashyan, yeah.
Okay. So, now if you go back to that word that you were currently asking us about, which is
Chintitavantaha.
I'm wondering, it's the first one?
Yeah.
Mm-hmm.
Bahuvachan will be there, right?
Yeah.
What is the root of that word, Bhagini?
Which one? Anitavan. Anitavan?
Anayati?
Anayati.
No, I think...
Anaya. Anaya.
I think Nagendra Mahodaya is asking the Dhatu, right?
Dhatu, yes.
1 minute, Mahodaya. Ni Dhatuhu, Mahodaya.
What, Bhagini?
Ni Dhatuhu.
Ni.
Okay. Asto. Bhavaneva Patatu. Etan?
Etan Agnikanan Madhye Sthapitva Paritaha Shushkani Parnani Sthapayitva Phutkaram Kurmaha.
Kurmaha Chet Agnihi
Utpadyate. Utpadyate.
Astu. Atra Agnihi Utpadyate. Kriya Kartrapadam Kriyapadam. Samaptam.
Agnihi Karta Udhya. Okay.
अस्तु अत्र परि एतान् अग्निकणान् मध्ये स्थापयित्वा एतानिति किं भवति
बहुवचन द्वितीयविभक्ति
आम् अग्निकणान् इति
बहुवचन द्वितीयविभक्ति
आम् अस्तु स्थापयित्वा इति वाक्ये
प्रत्यय
आम् प्रत्ययः कः प्रत्ययः
कत्वान्त् प्रत्ययः
परितः शुष्कानि पर्णानि स्थापयित्वा पूत्कारं कुर्मः चेत् अत्र स्थापयित्वा इति अपि अस्ति शुष्कानि इति किं भवति
शुष्कानि
पूत्कारम् इत्युक्ते ब्लोयिङ्ग् कुर्मः किं भवति
वयं
भूतकालं कुत्र अस्ति
कुर्मः करिष्यामि कुर्मः फ्यूचर् भविष्यत्कालं वयं
ट्रै अगेन् महोदय
कुर्मः ओके
यस् वर्तमानकाल
बहुवचनं
चेत् इति किं भवति
चेत्
किं भवति अव्ययम् अस्तु तेन वयं शैत्यपीडां दूरीकर्तुं शक्नुमः अस्तु अत्र तेन इति का विभक्तिः
तेन वयं तृतीय तेन
तृतीया किमर्थं तृतीया
तृतीय एकवचनं
आम् किन्तु किमर्थं तृतीया विभक्ति वल्लरी पुस्तके वयं तृतीया विभक्तिः विषये
शक्नोति बिकास् आफ् शक्नोति
न क्रिया इट् इस् नाट् बिकास् आफ् द वर्ब् there was like a word that they used for that
so I didn't get the question
kimartam atra tritiya vibhaktehe upayogam asti
sadhanam
atra karana vachakah asti
right yes
tat vayam patitavantah अस्तु तत्र नीना भगिनी भवती साधनम् इति उक्तवती कारणवाचकः इति अपि वक्तुं शक्नुमः अस्तु अत्र क्रियापदं किम् इदानीं लक्ष्मी भगिनी भवती वदतु
भगिनी तेन वयं दट् वाक्यं
तेन
वयं शौचपीडां दूरीकर्तुं शक्नुम् इति शक्नुमः शक्नुमः इति कर्तृप्रचयः शक्नुमः इति शक्नुमः क्रियापद भगिनि
शक्नुमः इति क्रियापदं
क्रियापदम् वयं शक्नुमः
वयं शक्नुमः
पीडा उद्भीति कर्तृपदं शौचपीडा उद्पदं
किं दूरीकर्तुं शक्नुमः
शौचपीडां दूरी कर्तुं
शैत्यपीडमिति शैत्यमिति नपुंसकलिङ्गं भवति द्वितीय एकवचनम् अस्तु अत्र दूरीकर्तुम् इति अस्ति कः प्रत्ययः
कर्तृप्रचयः
अस्तु एवं
चिन्तयति
अत्र इति अव्ययं भवति
तेन इति अव्ययः
अस्तु इदानीं पठतु एवं चिन्तयित्वा
एवं चिन्तयित्वा ते कुञ्जफलानि मध्ये स्थापयित्वा परितः पर्वाणि स्थापितवन्तः
अत्र क्रियापदं किं
स्थापितवन्तः
अपि स्थापयित्वा इति कः प्रत्ययः स्थापयित्वा
स्थापयित्वा बुद्धि त्वा स्थापयित्वा त्वान्तप्रचय
आम् अत्र भेदः भवति त्वान्तवतु नेम्स् गेट् कन्फ्यूसिङ्ग्
अत्र तवतु प्रचय
त्वान्तप्रत्ययः स्थापितवन्तः इति कः प्रत्ययः
स्थापितवन्तः उद्दि तवतु प्रचय तवतु प्रचय बहुवचनं
अस्तु उत्कारं कर्तुम् आरब्धवन्तः इति कः प्रत्ययः बृन्दा भगिनि
आरब्धवन्तः प्रत्ययः
पुनः
तप्रत्ययः
आरब्धवन्तः इति किमर्थं क्तप्रत्ययः
नो त्वान्तप्रत्ययः
किमर्थं त्वान्तप्रत्ययः आरब्धवन्तः
बिकास् इट्स् पास्ट् टेन्स् भूतकालम्
अस्तु किन्तु क्त्वान्तम् इति तत्र अहम् उदाहरणं लिखितवती गत्वा खादित्वा इतः तवतु
भगिनि सेम् फार् स्थापयित्वा हौ डिड् यू मेक् इट् अ डिफ़्रेण्ट् फ्रोम् देम् स्थापयित्वा
आफ्टर्
डूइङ्ग् समथिङ्ग् यू डिड् समथिङ्ग्
So that is Twanta, correct?
Yes.
Yeah, that is Twanta, correct.
Okay. परन्तु महता प्रयत्नेन अपि अग्निः न उत्पन्नः. एकनिमिषः. अत्र अतः वानराः चिन्तितवन्तः एतान् अग्निकणान् मध्ये स्थापयित्वा परितः शुष्कानि पर्णानि स्थापयित्वा पुष्करं कुर्मः. अत्र परितः अत्र शुष्कानि इति किमर्थं द्वितीयविभक्ति
परितः कारणतः
न
adjective visheshan 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 visheshan
no, because parnani is a bahuvachana so we'll be using shishkani here.
Oh, yeah
okay. Vigni atra paritah tasya niyamah atra na upayogam astam
parnani it's applicable to parnani
because of parnani
karma padam parnani becomes karma padam so shishkani also
Dvitiya.
Yeah, but the entire thing is Dvitiya because of Paritah.
No. That is what I'm saying. Paritah, its rule is not used here.
Okay.
Because it's Visheshana, Visheshana is a Parvani.
If Shushkani is confusing, pretend Shushkani is not there. Paritaha Parnani Sapetva Putkaram Kurmahachit Agnihu Utpadyate is the sentence. So Atra Vayam Kurmaha Atra sorry, Kirm Kurmaha, but Stapaitva also becomes a Kriya Padam, right? So Stapaitva, Kim Stapaitva, Parnani Stapaitva. So Parnani will be Karma Padam. And it is in Bahuvachanam. So when you put Visheshanam, that will also have to follow the Vishesh.
Vishesh, yes.
Hasto, Bhagini?
Okay.
So Parnani is what form, Bhagini?
Dvitiya Vibhakti.
Dvitiya Vibhakti. So that is following the rule of Paritaha also.
I feel it is, but anyway.
No, it's not for that reason. The Paritaha, that rule is not used here.
Okay. We'll go with what you're saying.
So the Parnani would be the Karma Padam here.
Visheshana Visheshana.
Yeah. It is not because of Paritaha that it is in Dvitiya Vibhakti. It is because that it is in Karma, it is Karma Padam.
Okay.
सूची मुखः नाम पक्षी एतत् सर्वं पश्यन् आसीत्. अस्तु, अत्र राधा भगिनी भवती वदतु इदानीं क्रियापदं किम्?
पश्यन् आसीत्
इति क्रियापदम्. अत्र कर्तृपदं किम्? तत्र
सूचीमुखः
वक्तुं शक्नुमः अथवा पक्षी अपि.
पक्षी चिड्डि न सूचीमुख इस् नामपदम्.
या बट् पक्षी इस् आल्सो नाम.
इट्
केन् बि ऐदर् वन्. And if you say pakshi asi, then like pashyan, it will be suchi mukaha pashyan.
Pashyanti.
No, pashyanti. Why?
Pashyanti. Pashyanti.
But you can also say pakshi pashyan asi.
So if it is suchi mukha, how will you use it, Bhagini?
How do you use what, Mahodaya?
Suchi Mukaha and Pashyan, how do you combine the sentence?
Suchi Mukaha Pashyan Asit.
Pashyan Asit.
Suchi Mukaha Nama Pakshi Pashyan Asit.
Okay.
Kim Pashyan Asit Etat Sarvam Pashyan Asit. You can also say Pakshi Pashyan Asit here.
Correct, okay.
But why?
Now, Pashyan is an avyaya. Pashyan is pratyaya?
Yes. But why, I'm asking, why is it in Pullingam?
Because Pratimukha is the masculine name.
No, we're just talking with the sentence, Pakshi Pashyan Asit.
Oh, maybe at that point then it becomes... Sarva is plural.
No, not because of that, Bhagini, because Pakshi is Pullingam.
One more exception.
Pakshi.
We've not learned Ikaranta Pullingam.
Okay, next sentence. Vanaranam.
What would be Pachan? Is that the...
Yes.
Pachan, okay.
Vanaranam is what we have to...
Vanaranam.
Shashti.
Pachanam kim? Taprayasam iti iti useless effort. Drishtva iti, without looking now, what pratyaya?
This is
Kvanta.
Taha iti sarvanama shabdaha. Muktavan iti kaha pratyaya? And then next sentence, ete agni kanahana. So ete sarvanama shabdaha ekavachanam. Agnikanah, those fire embers. Na, iti avyayam. Api tu yetani gunjapalani. Api is?
Also.
But what type of?
Avyayam.
Avyayam.
What about tu?
Tu is also
avyayam.
Yetani? Is sarvanama padam.
Sarvanama padam.
Gunja palani. Ityai bhakti bahuvachanam. Right? Bhavantaha kimartam vyartha shramam anubhavanti.
Kimartam
is avyayam. Bhavantaha is?
Sarvanama padam.
Yeah. Vyartashamam also means useless effort.
Why
are you experiencing? Anubhavanti. Experiencing. That is Vartamana Kala. Anubhavanti.
Bahuvachanam Vartamana Kala.
Kutrapi itipse kutra plus api. Kutrapi guhayam. Guhayam itipse?
Shashti.
Shashti. Cave.
Saptami ekvachanam.
Not ekvachanam.
Saptami ekvachanam.
Yeah.
No, that's guhe, right? Guhe, it will be ekvachanam. Oh, guhayam is trilingam. Okay.
Nirvata pradesha hai to windless region.
Oh,
Nirvata pradesha is windless, is it? Okay. Yeah.
Asti iti vartamana kalaha is there. Va aniti are?
अव्ययम्
अव्ययम्
अन्विष्यन्तु
क्रियापदं
कः लकारः
फ्यूचर् टेन्
लोट् लकारः
भविष्यकालः
भगिनी फार् द लोट् लकार वट् इस् द प्रेसेण्ट् टेन्स्
वट् यु मीन्
तिष्ठन्तु वास् फ्यूचर् लोट् लकार करेक्ट्
नो
जस्ट् लोट् लकार प्लूरल्
देन् वी मिस्टेकन्लि सेड् फ्यूचर् ओके तिष्ठन्तु इस्
प्रेसेण्ट् टेन्स् लोट् लकार प्रेसेण्ट् प्रेसेण्ट् बट् प्लूरल्
by the context you think go there and stay there
okay.
but its form is not future and lot lakara you can say there is a future present past
okay
should be anvishyantu is present only right
present plural
anvishyantu
no I think that is future
it's not like future by the context it is future
but because it is lok lakara it is
bagini I didn't get it
by the context you're saying you know it's like future but the form is not future
what form is it
anvishyantu
lok lakara form
plural present tense lok lakara
yes Oh, there's no present tense.
There is no present tense, sorry.
Teshu Saptami.
Teshu Saptami.
Yekaha Vrittaha.
All of this is Prathama Vibhakti.
Suchi Mukham Uktavan. Suchi Mukham is Ka Vibhakti. उक्तवान् अरे मूर्ख किं करणीयं किं न करणीयम् इति वयं सम्यक् जानीमः सम्बोधनम् अरे
मूर्खोधनम् अरे मूर्ख सम्बोधनं
किं करणीयं सो करणीयम् एण्ड् करणीयं सेम् वर्ड् बट् दट् इस् अ न्यू प्रत्ययः
ओ वन् मोर्
So that is like karaniyam to be
what to do So,
if there's like vyam, vyam kim karaniyam, gantavyam,
vaktavyam?
Yeah.
Bhagini, how do they come up with the word aniyar?
I don't know, Mahavya.
Okay.
I'm sure there is a reason, it's we just don't know yet.
Yeah.
Just
yeah.
like previously, that Pakshi, right? The root word is Pakshin. And that's why it is a Nakaranta. I would have never guessed that.
Yeah.
I didn't know that until I read the story.
Sanskrit is quite a complex language. Very, very complex.
Yeah. So you have to practice as you go on.
Yeah. And the Vedic Sanskrit was different from this.
Yeah. Asu Vaktavyam. New.
Bhagini, in this, there is a plural or no? No plural forms?
I don't think so, Mahodaya. Asu Bhavataha Upadeshaha Na Apekshitaha. Apekshitaha.
apekshitah.
Can you just switch one without me highlighting it? Very hard one.
Can I ask you for it?
Tavatu.
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 Yeah, Tva. Tva. Tva Pratyaya. Yeah, Tina Agni got it correct. Tva
Pratyaya. Tva Pratyaya, okay.
Maunena itaha gachyati. Itaha is avyaya.
Avyaya.
Maunena Pratyaya gachyatu.
Notchakar.
Parantu.
Suchimukha.
Suchimukha tasya vakyam anadritya. Anadritya iti avyayam. अत्रापि
वाट् इस् अपेक्षितः भगिनि ऐ मिस्
इट् नाट् नीडेड्
नो वाट् प्रत्यय
प्रत्ययः
आरब्ध आरब्ध
त्रिषु लिङ्गेषु भवति अपेक्षितः अपेक्षिता अपेक्षितम् अत्र मौनेन भाववाचकशब्दः द्वितीया विभक्तिः परन्तु इति अव्ययं पुनः इति अगेन् किमर्थं वृथाश्रमं वृथाश्रमम् इत्युक्ते व्यर्थश्रमं यूस्लेस् एफर्ट् लैक् अनुभवन्ति वै आर् यु एक्स्पीरियन्स् क्रियापदं बहुवचनं भवन्तः षष्ठी विभक्तिः बहुवचनम् इति वक्तुम् आरब्धवान् वक्तुम् इति कः प्रत्ययः आरब्धवान् इति सूचीमुखस्य इति कः
षष्टि
उपदेशेन कुपितः कश्चन वानरः तं दट् इस् द्वितीयाविभक्ति एकवचनं पक्षयोः सप्तमी द्विवचनं गृहीत्वा इस् कः प्रत्ययः
गृहीत्वा इस्
शिलातले का विभक्ति
सप्तमी
कटितवान् कः प्रत्ययः तेन गठनेन तेन का विभक्तिः कटनेन का विभक्तिः कः कर्तृपदं क्रियापदम् अव्ययं मृतः सा प्रत्ययः मृतम् अतः वट् विल् इट् बि
देयर्फोर् अव्ययम्
अव्ययम्
मूर्खं
द्वितीया
विभक्ति उद्दिश्य इति
अव्ययम्
अव्ययमेव गिविङ्ग् अड्वैस् उपदेशः इत्युक्ते अड्वैस् अस्माकं प्रथम एकवचनं किम् मम विल् बि षष्टि भगिनि षष्टि बहुवचनं मिस्
अस्माकं षष्टि बहुवचनं
विनाशाय एव भवति यस्
क्रियापदं
भगिनि वै इस् इट् पक्षयोः ऐ थिङ्क् इट्स् ओन्लि वन् पिक्षि वै इस्
विङ्ग्स् बोत् विङ्ग्स्
पक्षः ओके ऐ थॉट द बर्ड् ओन्ली
ऐ आल्सो थॉट बर्ड या
सो भगिनी देयर इज षष्टि
नो इट्स द्वितीया
इट्स द्वितीया
नो व्हाट
एम षष्टि या
no, what pakshayoho?
Yes.
Dvivachanam, dvivachanam
shashti
vibhakti,
right? No, saptami. Saptami. Okay. So it's same as shashti vibhakti, one is common.
Shashti or saptami, both will be pakshayoho, no?
Correct. It will be pakshayoho, but here it is like where, right?
Yeah.
Where he separated from, so it will be
Yeah, it's not bird wings, but it's like the wings, that's it.
By the wings, he took the
By the wings,
by the
yeah.
wings. By the wings.
Or snatched the bird wings. Prashnaha santi va?
Grihitva, what is the usage there? I didn't get the...
Where, Bhagini? I'm not good
at Pakshayoho
Grihitva. Grihitva is after grabbing.
Grabbing or
after
taking.
After grabbing.
Nam Pakshayoho Grihitva.
Grihitva.
After grabbing.
After grabbing.
Actually, it's like having grabbed the wing.
Yeah.
Bhagini, one more. This type of, if we do, we'll probably improve.
Yeah.
Do you promise?
Ghatitvan is what? Dashed it.
Yeah.
Ghatitvan, he slapped or...
Or dashed it to the rock. No?
Rock against, yeah.
That poor bird.
Should have known better to keep...
Bhagini, katha samyak asti. Dhanyavadaha.
Yeah, very good.
Dhanyavadaha.
Lot of effort, Bhagini. So, however, we did this kata, like finding which padams are the avyayams, the kriya padams, the kartra padams, practicing, like if you have parvataha, saying all the vibhakti rupani. I have assigned everybody one kata, and they get presented. Hopefully, it won't take this much time.
This, where do we get this katha?
I'll put the links when I share.
You'll put the link, is it?
Yeah,
okay.
I'll put the link.
And what should we do? Just read it, is it?
You have to. You can prepare for the katha.
Can we dissect it like this, Bhagini, with these.
You can practice it. If you have questions, we can.
You cannot be absent on that day then.
Yeah. And if you want to present before whatever, like it goes very up to late, and then if you want to present before that day, you can also tell me.
Okay.
शांति मंत्रम वदामः वृंदा भगिनी
आम भगिनी ओम भवन्तु सुखिनः सर्वे सन्तु ग्रामाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ओम शांति 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 ओम सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 श्रीगुरुभ्यो नमः हरि ओम्
धन्यवादः नमस्कारः